एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः प्रदेशानाम् मन्त्रालयानाम् संख्याम् व्ययम् च न्यूनीकर्तुम् आत्मना प्रस्तावितम्। एतदनुसारेणैव कतिचित् प्रदेशेषु मन्त्रालयानाम् संख्या न्यूनीकृता चास्तीति निगदति। ह्य सुदूरपश्चिम प्रदेशस्य मुख्यमन्त्रिण राजेन्द्र सिंह रावलस्य नेतृत्वस्य प्रदेशस्य मन्त्रिणां सांसदानां नेतृणां च समूहेन सह प्रधानमन्त्री प्रचण्ड अवोचत् प्रदेशै नीतिगत विषय स्थानीय स्रोत साधनानां अधिकतमे परिचालने च प्रतिस्पर्धा विधेया। प्रधानमन्त्री प्रचण्ड आत्मना शीघ्रं राष्ट्रिय गौरवस्य आयोजनानां अन्यासां विपुलानाम् जनानां च स्थलगत निरीक्षणाय गम्यते इत्यभासत। नेपाली कांग्रेस दलम राष्ट्रपतेः निर्वाचनम यथासमयं विधातुं बलं ददाति। दलसभापतेः शेरबहादुर देवाभिधस्य धुम्बाराही वर्तिनी निवासे ह्य उपविष्टेन दलस्य पदाधिकारिणां पूर्व पदाधिकारिणां च उपवेशेन विधिगत व्यवधानं सत तन्निवार्य यथासमयम् निर्वाचनस्य सम्पादनाय सर्वकारस्य ध्यानाकर्षणं विधातुं निर्णीतमिति दलस्य प्रवक्ता डाक्टर प्रकाश शरण महत अज्ञापयत। प्रवक्ता महत उपवेशेन राष्ट्रपतये कांग्रेस दलेन प्रत्याशितां प्रस्तोतुं सहमताये संसदि विद्यमानैः अन्यैर्दलैः सह विमर्शनं प्रारब्धं च निर्णीतमिति अवोचत। संघीय संसद सचिवालयेन नेपाली कांग्रेस दलाय प्रमुख विपक्षी दलस्य मान्यता प्रदत्ता वर्तते। सचिवालयेन कांग्रेस दलस्य संसदीय दलस्य कार्यालयाय पत्रम विलिख्य एतद् ज्ञापितमस्ति। सचिवालयेन कांग्रेस संसदीय दलस्य नेता शेरबहादुर देउवा प्रमुख विपक्षी दलस्य नेतु रूपेण विद्यानुसारेण सेवा सौविध्यानि प्राप्नोतीति पत्रस्य माध्यमेन ज्ञापितं वर्तते। कांग्रेस दलेन प्रधानमन्त्रिणे पुष्पकमल दाहालाय विश्वासस्य मतस्य प्रदानानन्तरं विपक्षी दलस्य मान्यताम् आधृत्य प्रश्नोद्भवनस्य सन्दर्भे सचिवालयेन पत्रस्य माध्यमेन विषयोऽयं स्पष्टीकृतो वर्तते। राष्ट्रपतिः विद्यादेवी भण्डारी निगदति कला साहित्य चलचित्रेष् सभ्यतायाः प्रतिबिम्बनं भवतीत्यतः राज्येन एतेषां प्रवर्धने विशेषं ध्यानं प्रदीयते। शीतल निवासवर्तिनी राष्ट्रपति कार्यालये कलाकर्मिभिः चलचित्रकर्मिभिश्च सह ह्यः सम्पन्ने मेलन कार्यक्रमे राष्ट्रपतिः भण्डारी समाजस्य अनुकूल रूपान्तरणाय चलचित्र कला चलचित्र क्षेत्रयोः भूमिका महत्वपूर्ण भवति त्यतः आत्मना एतत् क्षेत्रस्य विकासाय विस्ताराय च विशेष प्रयासो विधीयते इत्यभासत। कार्यक्रमे चलचित्र विकास समितेः अध्यक्ष भुवन केसी अवोचत् नेपालस्य चलचित्र क्षेत्रस्य समग्र विकासाय नूतन चलचित्राधिनियमः शीघ्रम् आनेतव्यः। कार्यक्रमे वरिष्ठ कलाकारः वसुन्धरा भूषालः चलचित्र निर्देशकः आकाश अधिकारी च चलचित्र क्षेत्रस्य समस्याः उपस्थापयताम्। उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः कथयति सर्वकारस्य प्राथमिकतायां निर्यातस्य प्रवर्धनं वर्तते। ह्य निर्यात व्यवसायी महासंघस्य प्रतिनिधिभिः सह भाषमाणः अर्थमन्त्री पौडेलः एतदर्थम् उद्योग वाणिज्यापूर्ति मन्त्रालयेन सह विमृश्य आवश्यकः निर्णयो विधास्यते इति प्रत्यपादयत्। महासंघेन नेपाली मौलिकोत्पादनानि विश्वापणे प्रापयितुं निर्यातजन्य नेपाली वस्तूनां मूल्यम् आपण क्षेत्रं च वर्धयितुं निर्यातस्य सहजताय आवश्यकं प्रयासं विधातुं च अभियाचितमासीत्। महासंघस्य अध्यक्ष रामबहादुर गुरूङ अवोचत् अन्तर्राष्ट्रिय मेलायम् आयोजितायं सत्यां नेपाले उत्पादितानि वस्तूनि विश्वापणे परिचायितुं सहयोगो भविष्यति। स्वास्थ्य जनसंख्या मन्त्री पदमगिरी गदति बाँके जनपदे प्रसृता मसुरीका शीघ्रं नियन्त्रिता भविष्यति। स्वास्थ्य पत्रकार मञ्चेन ह्य आयोजिते मेलन कार्यक्रमे असौ मसुरीकाया प्रकोपस्य नियन्त्रणाय प्रयास विधीयमानोऽस्तीति ज्ञापयन् अवदत् मासाभ्यन्तरे प्रकोपोऽसौ नियन्त्रितो भविष्यति। मन्त्रीगिरी स्थानीय जनप्रतिनिधय महिला स्वास्थ्य स्वयंसेविकाश्च प्रतिगृहम् यत्य बालबालिकास् मसुरीकाया प्रतिरोधी टीकाकरणम् आधातुं निर्दिष्टाः सन्तीति अब्रवीत। शिक्षा विज्ञान प्रविधि मन्त्री शिशिर खनालः आगामिने शैक्षिक सत्राय सर्वेष् विद्यालयेष् यथासमयं पाठ्यपुस्तकानि प्रापयिष्यन्ते इति प्रतिबद्धतां व्यनक्ति। राष्ट्रिय सभाया सबल विकास सुशासन समितेह सिंह प्रसाद वर्तिनी संसद सचिवालय ह्या उपविष्टे उपवेशे मन्त्री खनाल सर्वेषु विद्यार्थीषु यथासमयं पाठ्यपुस्तकानां प्रापणं सर्वकारस्य प्राथमिकतायम् अस्तित्यतः आगामि शैक्षिक छिक सत्रे विगत कालिकीव समस्या न भविष्यतीति अवोचत। उपवेशे शिक्षा विज्ञान प्रविधि मन्त्रालयस्य सचिव रामकृष्ण सुवेदी अस्मात् वर्षात् सर्वकारेण प्रथम कक्षातः पञ्चम कक्षा पर्यन्तिकानां पाठ्यपुस्तकानां मुद्रणस्य कार्यं नैज मुद्रण संस्थायै प्रदातुं निर्णीतमस्तीति अज्ञापयत्। नवनिर्वाचिता उपसभामुखा इन्दिरा राणा मगर ह्य प्रतिनिधि सभाया उपसभामुखस्य पदगोपनीयतायोः शपथं गृहीतवती। ह्यः शीतल निवासवर्तिनी राष्ट्रपति भवने आयोजिते समारोहे सभामुख देवराज घिमिरे उपसभामुखं राणा मगर इतीमां शपथम् अग्राहयत। शपथग्रहण समारोहे राष्ट्रपतिः विद्यादेवी भण्डारी उपराष्ट्रपतिः नन्दबहादुर पुन राष्ट्रिय सभाया अध्यक्ष गणेश प्रसाद तिमलसिन्हा चेति जनानाम् उपस्थितिः आसीत्। नवनिर्वाचिता उपसभामुख इन्दिरा राणा मगर ह्यैव सीमा प्रसाद वर्तिनी संसद सचिवालय भवनं प्राप्य पदभारं निरवहत्। उपसभामुख राणा मगर ह्य दलीयावद्धतातः पृथक भवनम् उदघोषयत्। असौ उपसभामुख पदस्य भूमिकां स्वतन्त्रां निष्पक्षां मर्यादितां विश्वसनीयां च विधातुं दलस्य सम्पूर्ण राजनीतिकात् सांगठनिकात् च दायित्वात् पृथक भवनम् उदघोषयत्। राष्ट्रिय योजना आयोगस्य उपाध्यक्ष पदे डाक्टर मीनबहादुर श्रेष्ठ नियुक्तो वर्तते। मन्त्री परिषद ह्या उपविष्टेन उपवेशेन डाक्टर श्रेष्ठ उपाध्यक्ष पदे नियुक्तोऽस्ति। उपाध्यक्ष नियुक्तम् श्रेष्ठम् ह्य एव आयोगस्य अध्यक्ष प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः सिंह प्रसादे पदगोपनीयतयोः शपथम् अग्राहयत्। इतः पूर्वमपि डाक्टर श्रेष्ठेन उपाध्यक्षस्य भूमिका निर्व्यूढा वर्तते। प्रधानमन्त्रिण पुष्पकमल दाहाल प्रचण्डस्य प्रमुख राजनीतिक परामर्शदात्री हरिबोल गजुरेल नियुक्तो वर्तते। नेकपा माओवादी केन्द्रस्य उपमहासचिवश्च गजुरेल प्रधानमन्त्रिण प्रचण्डस्य प्रमुख राजनीतिक परामर्शदात्री नियुक्तोऽस्तीति प्रधानमन्त्रिण संचार विज्ञ मनहरी तिमलसिन्हा अज्ञापयत्। नेपाली प्रजातन्त्रस्य स्थापनाय कृत प्राणोत्सर्गाणाम् हुतात्मनाम् स्मृतौ अद्यतः आराष्ट्रम् विविधैः कार्यक्रमैः सह हुतात्म सप्ताह समायोज्यमानो वर्तते। अस्यैव माघस्य षोडशे दिवसे विशेष कार्यक्रमैः आराष्ट्रम् हुतात्म दिवसः समायोक्ष्यते। हुतात्म दिवसस्य सप्ताहव्यापी कार्यक्रमाणाम् अन्तर्गतम् विभिन्नेषु दिनेषु गंगालाल शुक्रराज धर्मभक्त दशरथ चन्द प्रवृत्तिभिः प्राणोत्सर्गिभिः प्राप्ता मरत्वस्थानेषु श्रद्धाञ्जलिः समर्प्यते। सप्तनवत्यधिकोन विंशति शततमे वैक्रमाब्दे अद्यतने एव दिवसे प्रलम्ब्य दत्तप्राणदण्डस्य हुतात्मनः शुक्रराजशास्त्रेण स्मृतौ अद्य काष्ठमण्डपस्य टेकुस्थाने तेन प्राप्ता मरत्वाद् वृक्षाद् अधः हुतात्मसप्ताह प्रारभ्यमाणो वर्तते। राष्ट्रिय स्वतन्त्र दलस्य संसदीय दलस्य उपनेतरी विराजभक्त श्रेष्ठ प्रमुख सचेतक पदे च सन्तोष परियार प्रचितौ स्तः। रासोपा संसदीय दलस्य ह्या उपविष्टेन उपवेशेन श्रेष्ठम् संसदीय दलस्य उपनेतरी परियार इत्यमुम् प्रमुख सचेतक पदे च प्रचेतुम् निर्णीतमिति दलस्य महामन्त्री प्रवक्ता च डाक्टर मुकुल ढकालः अज्ञापयत्। अधिकार दुरूपयोगानुसन्धानायोगेन त्रिभुवनान्तर्राष्ट्रिय विमानस्थलस्य आन्तर्विमानस्थल शाखा कार्यालयस्य प्रमुख पूर्ण चुडालः निगृहीतो वर्तते। आयोगेन कार्यस्थले एव दण्डन प्रक्रियायाः सञ्चालनस्य क्रमे चुडालः ह्यः निगृहीतोऽस्ति। महाप्रबन्धक प्रेमनाथ ठाकुरः चुडालः निगृहीता इति अज्ञापयत्। महाप्रबन्धक ठाकुरः शाखा प्रमुख चुडालः निगृहीतोऽस्तीति ज्ञातः सन्नपि केन कारणेन निगृहीता इति स्पष्टीभूतम् नास्ति इति अवोचत्। नेपाल पञ्चाङ्ग निर्णायक समित्या पञ्चाङ्गानाम् भित्ति पञ्चाङ्गानाम् च प्रकाशनाय अनिवार्य रूपेण स्वीकृतिम् ग्रहीतुम् अनुरुद्धमस्ति। समितेः कार्यकारी निर्देशकः सूर्यप्रसाद ढुङ्गेल ह्यो विज्ञप्तिम् प्रकाश्य सर्वविधानाम् पञ्चाङ्गानाम् प्रकाशनात् प्राक् स्वीकृतिम् ग्रहीतुम् निवेदनस्य प्रस्तुत्यै अन्वरुणत्।